सर्वे नमः, सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. अस्माकं प्रवर्तमानविषयः अस्ति तत्र गुणनिरूपणम्. एतावत् तत्र वयं तत्र द्रव्याणां निरूपणं कृतवन्तः. इदानीं तत्र क्रमशः तत्र गुणानां निरूपणं कुर्मः. प्रथमगुणः अस्ति तत्र रूपं. तर्हि तत्र रूपम् इति विषये वयं पठितवन्तः. तत्र रूपम् इति किन्तु तस्य लक्षणवाक्यम् एतावत् न साधितवन्तः. अतः इदानीं तत्र रूपस्य लक्षणवाक्यं भवति. नाम रूपम् इति गुणः, एषः गुणः केन इन्द्रियेण गृह्यते? तत्र शुभा भगिनि, रूपं किम् इन्द्रियं गृह्णाति, रूपं गृह्णाति?
चक्षुरिन्द्रियेण
तत्र त्वचा, तत्र रूपं ज्ञातुं शक्नुमः वा?
न, स्पर्शः एव.
किन्तु हा त्वचा
रूपं न ज्ञातुं शक्नुमः.
रूपं न ज्ञातुं शक्नुमः. तत्र श्रोत्रेन्द्रियेण रूपस्य
न, तत्रापि न भवति.
न भवति. रसनेन्द्रियेण
तत्रापि न भवति.
अतः तत्र त्वचा न भवति, रसनेन्द्रियेण न भवति, घ्राणेन्द्रियेण न भवति, अपि श्रोत्रेन्द्रियेण न भवति. अतः केवलं तत्र चक्षुषा एव तत्र रूपं गृह्यते इति कृत्वा तत्र अस्माकं लक्षणवाक्यमस्ति तत्र चक्षुर्मात्रग्राह्यो गुणः रूपम् इति. नाम रूपं गुणः अस्ति, अपि एषः गुणः चक्षुषा गृह्यते, अन्यैः इन्द्रियैः न गृह्यते इति अस्ति अस्माकं लक्षणवाक्यम्. इदानीं तत्र लक्षणवाक्यम् एतादृशम् अस्ति इति तत्र अङ्गीकर्तुं तत्र धलसार्थक्यम् आवश्यकम् इति जानीमः. किन्तु तत्र धलसार्थक्यात् प्राक् किञ्चित् अस्मिन् विषये चिन्तयामः. तत्र ग्राह्यः, तत्र रूपं चक्षुषा गृह्यते इत्युक्ते किम् इति किञ्चित् ज्ञास्यामः. तदनन्तरं तत्र मात्र इति तस्य पदस्य तत्र योजनं कृत्वा किं किं भवति इति अपि पश्यामः. तर्हि तत्र चक्षुषा गृह्यते इत्युक्ते किम् इति कोऽपि वदति वा? तत्र योगेन्द्रमहोदय किञ्चित् प्रयत्नं करोति वा? चक्षुषा गृह्यते रूपम् इत्युक्ते किम्?
चक्षुषा चक्षु इन्द्रियै इन्द्रियेण एव रूपस्य ग्रहणं भवति. अन्यत् कापि इन्द्रि अन्यत् किमपि इन्द्रियमस्ति तेन रूपस्य ग्राह्यं न भवति, रूपं ज्ञातुं न शक्नुमः.
तत्र रूपस्य ग्रहणम् इत्युक्ते किमस्ति?
रूपस्य ज्ञानं प्रायः.
रूपस्य ज्ञानं, समीचीनं. ज्ञानं कुत्र वर्तते?
ज्ञानम् आत्मनि वर्तते.
आत्मनि वर्तते. इदानीं रूपस्य ज्ञानम् इत्युक्ते तत्र ज्ञानमस्ति चेत् विषयः अस्ति, तर्हि तत्र ज्ञानस्य विषयः कः?
रूपम्.
रूपं, तर्हि तत्र रूपविषयकज्ञानं भवति. केन इन्द्रियेण भवति?
चक्षुरिन्द्रियेण.
चक्षुरिन्द्रियेण भवति. चक्षुरिन्द्रियेण एतद् ज्ञानं भवति. तर्हि समीचीनं महोदय. तर्हि तत्र विषयः कः अत्र अस्मिन् ज्ञाने? विषयः अस्ति रूपं, खलु?
रूपं, रूपमिति विषयः.
विषयः रूपम् अस्ति विषयः. तत्र विषयता कुत्र अस्ति?
विषयता ज्ञाने अस्ति प्रायः. आत्मनि
विषयता. विषयः विषयः कः?
विषयः रूपम् अस्ति.
रूपम् अस्ति. तर्हि विषयता कुत्र अस्ति?
आत्मनि.
न रूपे ज्ञानमस्ति आत्मनि, किन्तु विषयः रूपमस्ति. तर्हि विषयता कुत्र अस्ति?
चक्षु
सरलं. नाम पुस्तकमस्ति चेत् तत्र पुस्तकस्य भावः किं किम् अस्ति? भावः कः?
पुस्तकत्वं. पुस्तकत्वं.
पुस्तकत्वं कुत्र अस्ति?
पुस्तके.
तत्र पुस्तकत्वं पुस्तकता समानार्थकपदं, खलु? पुस्तकत्वं वा पुस्तकता? विषयत्वम् अथवा विषयता समान समान अर्थः खलु तत्र तर्हि तत्र विषयता कुत्र अस्ति तर्हि
तत्र विषयता अपि विषये अस्ति अतः रूपे अस्ति
विषयः
रूपः
रूपमस्ति तर्हि विषये रूपं रूपे विषये विषयता अस्ति समीचीनं तर्हि तत्र विषयता अस्ति अस्तु समीचीनं ज्ञाने विषयिता अस्ति खलु यतोहि
आम् ज्ञाने विषयिता अस्ति
विषयिता अस्ति समीचीनं तर्हि अपि तत्र विषयता विषयिता तयोः मध्ये कीदृशभावः अस्ति तत्र
निरूप्यनिरूपकभावः
निरूप्यनिरूपकभावः अस्ति तत्र यथा वयं शृण्मः विषयता तदा वयं चिन्तयामः तत् तर्हि विषयता कुत्र अस्ति विषयिता इति यदि कोऽपि वदति वयं चिन्तयामः विषयता अपि भवेत् इति तर्हि तत्र विषयता विषयिता निरूप्यनिरूपकभावः अस्ति तयोः मध्ये इति अस्ति समीचीनं हा समीचीनं महोदय इदानीं तत्र एतावत् तत्र ज्ञानस्य विषयः रूपम् इति इदानीं तत्र अग्रे इदानीं तत्र नूतनतया तत्र चन्द्रमती भगिनी नमस्कारः धनश्री भगिनी नमस्कारः नरसिंहमहोदय नमस्कारः नमस्कारः मूर्तिमहोदय नमस्कारः अस्तु तत्र नमस्कारः महोदय अस्तु तर्हि तत्र मृणालिनी भगिनी तर्हि अत्र एतद् ज्ञानं रूपविषयकज्ञानं केन इन्द्रियेण भवति
चक्षुषा
चक्षुषा भवति समीचीनं हा तर्हि तत्र यदि चक्षुः नास्ति चेत् तत्र रूपस्य ज्ञानं भवति वा
न भवति
न भवति तर्हि चक्षुः इति कारणम् इति स्वीकर्तुं शक्नुमः वा नाम तत्र चक्षुः नास्ति चेत् तत्र रूपं रूपस्य ज्ञानं न भवति इति स्वीकर्तुं शक्नुमः वा अङ्गीकर्तुं शक्नुमः वा
आं शक्यते
चक्षुः कारणम् अस्ति तत्र कारणं चक्षुः अस्ति अपि तत्र कार्यं किम् अस्ति प्रति कारणमस्ति चक्षुः
रूपस्य ग्रहणं प्रति
हा रूपस्य ज्ञानं प्रति तर्हि ज्ञानमस्ति कार्यं ज्ञानमस्ति कार्यम् अपि चक्षुः अस्ति कारणं खलु
कारणम् आं कारणं
चक्षुः अस्ति कारणम् अपि ज्ञानमस्ति कार्यं तर्हि कारणतः कुत्र अस्ति
कारणतः चक्षुषि
चक्षुषि अस्ति हा समीचीनं तर्हि अत्र कारणता अस्ति अपि ज्ञाने कार्यता अस्ति खलु
कार्यता
अपि तयोः मध्ये कीदृशभावः
निरूप्यनिरूपकभावः
निरूप्यनिरूपकभावः अस्ति हा तर्हि तत्र धर तत्र भागद्वयमस्ति एकमस्ति तत्र ज्ञानं ज्ञानस्य विषयः कः अपि ज्ञानं केन इन्द्रियेण भवति इति खलु एषः भागः केन इन्द्रियेण ज्ञानं लब्धम् इति वदति एषः भागः ज्ञानस्य विषयः कः इति वदति खलु समीचीनं वा
समीचीनं
तर्हि तत्र मिलित्वा जानीमः तत्र प्रत्यक्षज्ञानं यत्र प्रत्यक्षज्ञानमस्ति तत्र नाम अयं घटः इति अथवा तत्र नीलवर्णः इति वदामः तत्र नीलरूपम् इति वदामः तत्र प्रत्यक्षज्ञानमस्ति केनापि इन्द्रियेण लब्धं ज्ञानमस्ति अतः तत्र किं चिन्तयामः तत्र इन्द्रियम् अपि भवेत् तर्हि विषय ज्ञानस्य विषयः इति एकः भागः केन इन्द्रियेण एतद् ज्ञानं लब्धम् इति अन्यः भागः भवति अपि तत्र इन्द्रिये चक्षुषि चक्षुः इन्द्रियमस्ति चक्षुषि इन्द्रिये कारणता अस्ति चक्षुः कारणमस्ति ज्ञानं प्रति खलु प्रत्यक्षज्ञानं प्रति कारणम् अस्ति चक्षुः इति अस्ति समीचीनम् इदानीं तत्र अतः एतावत् तत्र वयं किं कृतवन्तः एतत् समीचीनमस्ति वा अधोभागे यत् चित्रमस्ति मृणलजी भगिनि तत् समीचीनमस्ति वा तत्र तर्हि इदानीं तत्र हा अस्तु धन्यवादः भगिनि अस्तु तर्हि इदानीं तत्र नीता भगिनी किञ्चित् वदतु तत्र अस्मिन् चित्रे कीदृश एषः एतत् चित्रं किं वदति
हा अत्र तु रूपस्य ग्रहणं रूपस्य प्रत्यक्षज्ञानं भवति चक्षुषा चक्षु इति करण वा साधन वा चक्षु इन्द्रिये कारणत्वमस्ति जनकता अस्ति कारणता अस्ति वा जनकता अस्ति जनकता तत्र अत्र ज्ञाने प्रत्यक्षज्ञाने प्रत्यक्षज्ञानस्य विषयः अस्ति रूप रूपस्य रूपम् इति विषयः अस्ति रूपस्य प्रत्यक्षज्ञानं भवति चक्षुषा तु प्रत्यक्षज्ञाने ज्ञाने कार्यता अस्ति चक्षु इन्द्रिये कारणता अस्ति तु चक्षु इन्द्रिये कारणता चक्षुनिष्ठ जनकता वा कारणता निरूपिता जन्यता जन्यतायाः आश्रयः अस्ति प्रत्यक्षज्ञानं ज्ञाने विषयिता अस्ति यतोहि रूपविषयज्ञानं तत्र अस्ति प्रत्यक्षज्ञाने विषयिता अस्ति विषयिता निरूपिता विषयता विषयतायाः आश्रयः इत्युक्ते रूपम् इति विषयतायाः आश्रयः अस्ति रूपम्
बहु समीचीनमस्ति भगिनी धन्यवादः तर्हि तत्र
धन्यवादः
रूपं चक्षुषा गृह्यते इति न्यायशास्त्रे कथं वदामः एतेन चित्रेण नाम तत्र रूपे विषयता अस्ति अपि तत्र विषयिता प्रत्यक्षज्ञाने अस्ति अपि तत्र निरूप्यनिरूपकभावः अस्ति अत्रापि निरूप्यनिरूपकभावः अस्ति अपि यथा इदानीं तत्र नीता भगिन्या उक्तं तत्र चक्षुनिष्ठ इति आरभ्य रूपपर्यन्तं यदि गच्छामः तत्र वयं वदामः तत्र रूपं चक्षुषा गृह्यते रूपस्य प्रत्यक्षज्ञानं चक्षुषा भवति इति वदामः इति अस्ति अतः इदानीं तर्हि तत्र यदि तत्र धन्यवादः भगिनी इदानीं बहु समीचीनमस्ति इदानीम् अग्रे तत्र धनश्री भगिनी इदानीं तत्र यदि अत्र शब्दः इति स्थापयामः शब्दः इति गुणः अस्ति खलु अपि तस्य आशयः कः शब्दस्य आशयः समवायिकारणं
श्रोत्रे
न शब्दस्य समवायिकारणम् आशयः आकाशः अपि शब्दस्य प्रत्यक्ष ज्ञानं भवति वा केनेन्द्रियेण
श्रोत्रेन्द्रियेण
श्रोत्रेन्द्रियेण तर्हि तत्र शब्दः श्रोत्रेन्द्रियेण गृह्यते इति यदि वक्तुम् इच्छामः तर्हि अस्मिन् चित्रे अत्र शब्दः इति स्थापयामः अन्यत्र कुत्र परिवर्तनं भवेत्
चक्षुः अस्ति तत्र श्रोत्रेन्द्रियेण
श्रोत्रेन्द्रियम् अस्मिन् स्थले श्रोत्रेन्द्रियम् इति यदि स्थापयामः तत्र श्रोत्रेन्द्रियम् इति आरभ्य एतादृशं गच्छामश्चेत् तत्र शब्दः श्रोत्रेन्द्रियेण गृह्यते नाम तस्य शब्दस्य प्रत्यक्षज्ञानं श्रोत्रेन्द्रियेण भवति इति एतत् चित्रं वदति खलु तर्हि
श्रोत्रनिष्ठजनकता निरूपितजन्यता याः आश्रयः प्रत्यक्षमस्ति तत् प्रत्यक्षे तत् प्रत्यक्षनिष्ठविषयता विषयिता निरूपितविषयता शब्दे अस्ति
शब्दे अस्ति इति भवति समीचीनं भगिनि हा तत्र
महोदय प्रत्यक्षं वदामः वा
प्रत्यक्षरूपेण आगच्छति न किं भगिनि पुष्पाबलि कः प्रश्नः
प्रत्यक्षरूपे श्रोत्रेन्द्रियेण आगच्छति न
रूपमिति नास्ति भगिनि इदानीं तत्र शब्दः इति स्थापयामः अत्र
तदपि प्रत्यक्ष एव
शब्दस्य अपि प्रत्यक्षज्ञानं भवति खलु यदि शब्दस्य प्रत्यक्षज्ञानं
रूपं नास्ति प्रत्यक्ष
तत्र रूपस्य स्थाने शब्दः इति स्थापितवन्तः यदि शब्दः इति स्थापयामः तर्हि चक्षुः इति स्थाने श्रोत्रेन्द्रियं स्थापयामः भवति
वा तद् अवगतं प्रत्यक्षम् इति वदनेन प्रत्यक्षज्ञानमस्ति ज्ञानं तद्
ज्ञानं प्रत्यक्षज्ञानमेव अस्ति प्रत्यक्षम् इत्युक्ते एकविधं ज्ञानं खलु प्रथमविधज्ञानं खलु प्रत्यक्षम् अनुमानम् उपमानं शाब्दबोधः इति तत्र ज्ञानस्य चतुर्विधज्ञानं खलु इन्द्रियेण यद् ज्ञानं लभ्यते तदस्ति प्रत्यक्षज्ञानम् तर्हि धनुषी भगिनी तर्हि तत्र शब्दः इति तत्र श्रोत्रेन्द्रियेण गृह्यते तर्हि शब्दे विषयता अस्ति कीदृशविषयता इत्युक्ते तत्र श्रोत्रेन्द्रिय इति आरभ्य एतावत् यदि वदामः तत्र तादृशविषयता अस्ति इति जानीमः तेन किम् अवगच्छामः तत्र श्रोत्रेन्द्रियं तत्र शब्दं गृह्णाति श्रोत्रेन्द्रियमिति इन्द्रियं शब्दं गृह्णाति इति अस्ति इति समीचीनम् अस्तु समीचीनम् अस्तु इदानीं तत्र अग्रेसरामः तर्हि तत्र यत्र यत्र एतत् इन्द्रियेण गृह्यते इति अस्ति तत्र एतादृशं चित्रं भवेत् इति सर्वे अवगतवन्तः खलु तर्हि यत्र यत्र किमपि वदामः तत्र शब्दः श्रोत्रेन्द्रियेण गृह्यते अथवा तत्र रूपं चक्षुषा गृह्यते इति यत्र तादृशवाक्यमस्ति तत्र एतादृशं चित्रं भवति तत्र ज्ञानं गृह्यते नाम ज्ञानं प्रत्यक्षज्ञानं ज्ञानस्य विषयः इति एकभागः अपि ज्ञानस्य कारणम् अथवा जनकः इति अन्यः भागः भवेत् यतोहि प्रत्यक्षज्ञानमस्ति इन्द्रियेण जातं ज्ञानमस्ति तर्हि इन्द्रियं किमपि इन्द्रियं तस्य कारणमस्ति एतद् ज्ञानं प्रति किमपि इन्द्रियं कारणमस्ति अतः तत्र एषः भागः कारणं किमिति वदति एषः भागः विषयः कः इति ज्ञानस्य विषयः कः इति वदति तर्हि एतादृशं चित्रं भवति यत्र यत्र रूपं तत्र चक्षुषा गृह्यते अथवा शब्दः श्रोत्रेन्द्रियेण गृह्यते इति वदामः अस्तु इदानीम् एतावत् तत्र
समीचीनमस्ति आचार्य तत्र वाक्यवदनसमये तत्र चक्षुर्निष्ठजनकता वदामः वा इन्द्रिययोजनीयं वा पदं
न यथा इच्छा तत्र यदि तत्र प्रत्यक्षज्ञानम् इति वगच्छामः तत्र इन्द्रियस्य आवश्यकता प्रायश्च नास्ति किन्तु यथा इच्छा भगिनि तत्र तत्र इन्द्रियं
भवेत् चक्षुर्निष्ठजनकता चक्षुर्निष्ठजनकता
इति चिन्तयामि तत्र अन्य कोऽपि वदेत् तत्र चक्षुर्निष्ठ वा चक्षुनिष्ठ वा इति तत्र सन्धिकार्यं तत्र कोऽपि अन्य कोऽपि वक्तुम् इच्छति वा चक्षुर्निष्ठ वा चक्षुर्निष्ठ
अस्ति वा नपुंसक अस्ति वा श्रोत्रं
श्रोत्रेन्द्रियम् इति श्रोत्रेन्द्रियं इदानीं तत्र इन्द्रियम् इति स्थापयामि भगिनि सारल्यमस्ति तत्र श्रोत्रेन्द्रियं चक्षुरिन्द्रियनिष्ठा इति स्वीकुर्मः तर्हि नो चेत् तत्र विषयान्तरं भवति अस्तु इदानीम् अग्रे गच्छामः तत्र मात्र इति अस्ति तर्हि तत्र इदानीम् अत्र आरम्भं कुर्मः तत्र एव कारार्थकमात्रपदश्रवणमपि प्रकृते वर्तते इति आरभ्य इदानीं पठामः एतावत् वयं किम् अवगतवन्तः तत्र रूपं चक्षुषा गृह्यते किन्तु अत्र अस्मिन् तत्र मात्र इति पदमपि अस्ति तस्य विश्लेषणं कथं भवेत् इति इदानीं पश्यामः तर्हि अत्रतः तत्र एक एव कारार्थक इति ततः आरभ्य पठामः तर्हि तत्र नरसिंहमहोदय पठति वा नरसिंह महोदय अस्तु
महोदय
अस्तु
एवकारपदार्थं पदश्रवणमपि प्रकृते वर्तते तत्र लोके चैत्र एव आयाति इत्युक्तौ यथा चैत्रगमनं प्रतीयते तथैव चैत्रभिन्नः यः तस्य अनागमनमपि तथैव प्रकृते अपि चक्षुषा एव ग्राह्यमित्युक्तौ यथा चक्षुषा ग्राह्यत्वं बोध्यते तथैव तदितर अग्राह्यमपि अग्राह्यत्वमपि यथा
तावत् पर्यन्तं तर्हि
एवकारपदार्थं योजितमस्ति अत्र लक्षणे इत्युक्ते तत्र चक्षुर्मात्र मात्र इति पदेन एवकारं बोध्यते एवकारम् इत्युक्ते तदेव सूचयति तद्भिन्ना न सूचयति अत्र उदाहरणमपि दत्तमस्ति चैत्र चैत्रागमनम् इत्युक्ते केवलं चैत्र एव आगच्छतु न तु अन्य कोऽपि आगच्छतु इति बोधयति तावदेव अत्रापि चक्षुर्मात्र इत्युक्ते चक्षु इन्द्रियेण एव प्रत्यक्षज्ञानं प्रत्यक्षग्रहणं भवति चक्षुर्भिन्न इन्द्रियेण रूपस्य ग्रहणं प्रत्यक्षग्रहणं न भवति इति अर्थः बोधयति इति अस्ति
समीचीनं महोदय तर्हि तत्र यत्र एव इति अस्ति तत्र विषयद्वयम् अवगच्छामः अस्ति खलु तत्र नाम चैत्रः एव आयाति चैत्रः एव आगच्छति इति यदि शृण्मः तत्र विषयद्वयम् अवगच्छामः किं किम् अस्ति एकमस्ति तत्र आगमनं चैत्रः आगच्छति इति
अन्यमस्ति चैत्रभिन्ना नागच्छति चैत्रभिन्ना नास्ति इति
न आगच्छति अतः तत्र एव इति स्थापनेन वयं तत्र विषयद्वयम् अवगच्छामः चैत्रः आगच्छति चैत्रभिन्नः न आगच्छति तर्हि तत्र एव पदेन तत्र किं भवति सीमा तत्र एव पदं सीमां रचयति तत्र केवलम् इति तर्हि अत्रापि तथैव यथा भवता उक्तं तत्र चक्षुषा एव इति अस्ति चक्षुषा एव इति पदस्य तत्र स्थापनेन किम् अवगच्छामः चक्षुषा ग्राह्यत्वं बोध्यते नाम चक्षुषा गृह्यते एषः गुणः चक्षुषा ग्राह्यः इति तादृशबोधः भवति अपि तथैव तदितर तत्र तद् इत्युक्ते किं महोदय
तद् इत्युक्ते चक्षुरितरः इति
चक्षुरिन्द्रियम्
अथवा चैत्र इतर इति
न चैत्र इतर अस्मिन् स्थले चैत्र इतर तत्र चैत्रभिन्नः तस्मिन् स्थले तद् किन्तु अत्र तद् इतर इति तत्र अत्र
चक्षुः
एव चक्षुभिन्नः तद् इतर नाम चक्षुभिन्न इन्द्रियेण अग्राह्यत्वम् चक्षुर् इन्द्रियं यदस्ति तद्भिन्न इन्द्रियेण अग्राह्यत्वं नाम न गृह्यते न ग्राह्यः एषः गुणः इति अपि तस्य बोधः अपि भवति अतः तत्र यथा इदानीं तत्र अग्रे प्रेमलताभगिनी धन्यवादः महोदय अग्रे प्रेमलताभगिनी
धन्यवादः
इति एकवारं पठित्वा वदतु भगिनि
तथा च चक्षुरितराणि यानि ग्राणादीन्द्रियाणि तैः रूपस्य प्रत्यक्षं न भवति अथवा तैः जायमानं यत् प्रत्यक्षं तस्य विषयः रूपं न भवति इति अर्थः पदति अतः
तर्हि तावत् पर्यन्तं वदतु भगिनि तर्हि तत्र किम् उक्तं
तदेव पूर्वम् उक्तं तदेव अत्रापि अन्यरीत्या उक्तं चक्षुरेण यत् ज्ञानं भवति प्रत्यक्षज्ञानं रूपस्य तत् प्रत्यक्षं ज्ञानम् अन्य इन्द्रियेण ग्राणादि अन्य इन्द्रियेण तद् ज्ञानं न भवति इति
अस्ति समीचीनं रूपस्य रूपस्य ज्ञानम् अन्येन इन्द्रियेण नाम चक्षुर्भिन्न इन्द्रियेण प्रत्यक्षज्ञानं रूपस्य प्रत्यक्षज्ञानं न भवति इति अस्ति एव पदे एव पदस्य अर्थः समीचीनम् इदानीं तत्र किञ्चित् परिवर्तनं यथा भवत्या उक्तं तत्र इदानीं तत्र अन्या रीत्या उक्तमस्ति इदानीं तत्र द्वितीयविध तत्र प्रदर्शनं तत्र कीदृशम् अस्ति एतदेव उक्तमस्ति पुनः किन्तु अन्या रीत्या उक्तमस्ति अथवा इति आरभ्य
अथवा तैः जायमानं यत् प्रत्यक्षं तस्य विषयः रूपं न भवति इति अत्र दृष्टवन्तः ये रूपस्य प्रत्यक्षं रूपविषयकज्ञानं भवति अत्र एतत् ज्ञानं रूपविषयकज्ञानं भवति चक्षुः यद्भवति अन्य इन्द्रिये यत् ज्ञानं भवति तद् रूपविषयकज्ञानं न भवति
इति खलु नाम यदि वयं वदामः रूपस्य ज्ञान प्रत्यक्षज्ञानम् अन्यैः इन्द्रियैः न भवति इति यदि वदामः एतस्य वाक्यस्य अर्थः कः नाम अन्यत् इन्द्रियं किमपि स्वीकरोतु चक्षुभिन्न इन्द्रियं यत्किमपि स्वीकरोतु तेन यत् प्राप्तं ज्ञानं प्रत्यक्षज्ञानं तस्य प्रत्यक्षज्ञानस्य विषयः रूपं कदापि न भवति खलु नाम तत्र अन्येन अन्यैः इन्द्रियैः तत्र तैः इत्युक्ते कैः चक्षुरितरैः यैः तत्र चक्षुरितराणि यानि घ्राणादि इन्द्रियाणि इति अस्ति तैः तथैव तत्र तैः जायमानं
यत्
प्रत्यक्षज्ञानम् अस्ति तत्र विषयः तत्र श्रोत्रेन्द्रियेण
रूपं न भवति
विषयः
ज्ञानं
न भवति श्रोत्रेन्द्रियेण श्रोत्रेन्द्रियेण यत् प्रत्यक्षज्ञानं भवति तद् ज्ञानं तु रूपविषयकज्ञानं कदापि न भवति कदापि न भवति अपि तत्र चक्षु तर्हि घ्राणेन्द्रियेण यत् प्रत्यक्षज्ञानं भवति तस्य ज्ञानस्य विषयः रूपं कदापि न भवति त्वचा यत् यत्किमपि प्रत्यक्षज्ञानं भवति किन्तु तत्र त्वचा यत् ज्ञानं प्राप्तं तद् ज्ञानं रूपविषयकज्ञानं कदापि न भवति इति अस्ति इदानीं तद् कथं वदामः तत्र चित्ररूपेण यत्र वयं दृष्टवन्तः आरम्भे तत्र यत्र रूपं चक्षुषा गृह्यते इति अस्ति तत्र चित्रं स्थापितवन्तः कृतवन्तः रचितवन्तः तथैव अत्र न गृह्यते इति तत् कथं चित्ररूपेण प्रदर्शयामः इति अग्रे भवति धन्यवादः भगिनि समीचीनमस्ति अस्तु इदानीं तत्र उषा भगिनी अग्रे तत्र अस्मिन् चित्रे किम् अस्ति इति किञ्चित् वदति वा तत् तर्हि
अस्तु महोदय प्रयत्नं करोमि वयं चक्षुः इत्यनेन रूपम् इति अन्तिमभागः कृते लक्षणवाक्यं दृष्टवन्तः अत्र घ्राणादि इन्द्रियस्य लक्षणवाक्यस्य कृते घ्राणादि
नाम तत्र पूर्वम् अस्मिन् चित्रे तत्र अस्माकं प्रथमचित्रे किम् आसीत् तत्र रूपमस्ति अपि चक्षुः अस्ति प्रत्यक्षम् अस्ति तत्र
चक्षुरिन्द्रियेण महोदय चक्षुरिन्द्रियेण चक्षुरूपविषयकप्रत्यक्षज्ञानं जनयति चक्षुः रूपविषयकज्ञानम्
हा उत्तममस्ति भगिनि रूपविषयकप्रत्यक्षज्ञानं
प्रत्यक्षज्ञानं जनयति
जनयति उत्तमं भगिनि हा उत्तमम् अतः तत्र चक्षुः कारणं प्रत्यक्षज्ञानं कार्यं ज्ञानस्य विषयः रूपं रूपम् इति समीचीनं भगिनि उत्तमं हा इदानीं तत्र वयं किं वक्तुम् इच्छामः अत्र तत्र रूपमेव अस्ति
रूपमेव अस्ति
किन्तु एकनिमिषः किन्तु प्रथमतया एतद् भागं नास्ति इति चिन्तयतु एकनिमिषः तत्र एतद् नास्ति इति चिन्तयतु केवलम् एतदेव अस्ति तत्र गन्धः इति अपि अत्र घ्राणेन्द्रियम् इति चिन्तयतु अत्र गन्धः अस्ति तर्हि तत्र एतद् नास्ति इति चिन्तयतु एतद् नास्ति अपि केवलं
गन्धः इति विषय गन्धः इत्यस्य विषये विषयक प्रत्यक्षज्ञानं जनयति घ्राणेन्द्रियः
घ्राणेन्द्रियम् इति अवगच्छामः तर्हि तस्मिन् समये किं भवति विषयः कुत्र अस्ति गन्धे अस्ति
गन्धे अस्ति
यतोहि गन्धः एव विषयः गन्धविषयकज्ञानं
प्रत्यक्षज्ञानं भवति
अस्ति समीचीनं हा तर्हि विषयः गन्धे अस्ति अस्ति किन्तु तादृशी विषयता रूपे अस्ति वा
नास्ति महोदय
नास्ति
नास्ति
अत्र घ्राणेन्द्रियम् अस्ति चेत् विषयता गन्धे तु अस्ति किन्तु तादृशी विषयता रूपे नास्ति
नास्ति इतर इन्द्रियाणि न ग्राह्यम् इति कृते
अस्ति रूपं घ्राणेन्द्रियेण न गृह्यते इति कथं वदामः यथा अत्र अस्ति नाम चक्षुरितराणि यानि घ्राणेन्द्रियाणि तैः रूपस्य प्रत्यक्षज्ञानं भवति भवति तस्य अर्थः कः द्वितीयवाक्यं पठतु
अथवा तैः जायमानं यत् प्रत्यक्षं तस्य विषयः रूपं न भवति इति अर्थः फलति सो अथवा तैः जायमानम् अन्य इन्द्रियाणि जायमानं प्रत्यक्षज्ञानं विषयः विषयः रूपं न भवति चक्षुः चक्षुरिन्द्रियमेव रूपम् इति घ्राणेन्द्रियेण जायमानं यत् प्रत्यक्षज्ञानं तस्य विषयः रूपं न भवति गन्धः एव भवति
गन्धः गन्धः एव किन्तु गन्धः इति अस्ति किन्तु इदानीं गन्धः इति मास्तु केवलं रूपं रूपं नास्ति
रूपं नास्ति रूपं
नास्ति एवं तस्य महत्त्वम् अत्र समीचीनं तर्हि तस्य इत्युक्ते प्रत्यक्षज्ञानस्य
प्रत्यक्षस्य
ज्ञानस्य विषयः न भवति
भवति
समीचीनं
अभावः इति वदामः वा
समीचीनं भगिनि हा हा तत्र एव गन्तुम् इच्छामः समीचीनं हा अस्तु तर्हि उषा भगिनी इदानीं तर्हि तत्र विषयता नास्ति तत्र अत्र घ्राणेन्द्रियम् अस्ति विषयता गन्धे तु अस्ति किन्तु तादृशी विषयता रूपे नास्ति इति कथं वदामः रूपाभावः नास्ति रूपे नास्ति विषयता
आं महोदय
तर्हि कस्य अभावः रूपे अस्ति
रूपे गन्धस्य अभावः
न गन्धस्य गन्धः न
विषयता अभावः अस्ति
विषयतायाः अभावः
विषयतायाः अभावः अस्ति
विषयतायाः अभावः रूपे अस्ति तर्हि तत्र विषयता गन्धे अस्ति तत्तु अस्ति किन्तु यदि घ्राणेन्द्रियम् अस्ति चेत् तत्र विषयता रूपे नास्ति इति अत्र इति एव महत्त्वं तर्हि तत्र रूपम् इति अस्ति चेत् तत्र महत्त्वमस्ति अत्र अभावः रूपस्य अभावः इति नास्ति विषयतायाः
अभावः
रूपे अस्ति विषयता रूपे नास्ति इति कथं वदामः तस्य अभावः तस्याः अभावः रूपे अस्ति विषयता नास्ति इत्युक्ते विषयतायाः अभावः
रूपे
अस्ति अतः तत्र इदानीं वयं किं कृतवन्तः इदानीम् इतः पर्यन्तं यदि गच्छामः तर्हि तस्य तेन चित्रेण किं बोध्यते? तत्र रूपम् अन्येन,
रूपम् अन्य इन्द्रियैः न गृह्यते इति
वदामः, इति वदामः, समीचीनं। तत्र घ्राणेन्द्रियं वा तत्र चक्षुरिन्द्रियं यत्किमपि स्थापयामः अत्र, तत्र अभावः इति अस्ति चेत् तत्र तेन किं सूचितम्? अस्तु, ग्रहणं न भवति, न गृह्यते रूपम् इति भवति। समीचीनं, अस्तु। अतः तत्र एतद्वाक्यं महत्त्वपूर्णमस्ति, नाम तत्र चक्षुरितराणि यानि घ्राणादि इन्द्रियाणि तैः रूपस्य प्रत्यक्षं न भवति इति अन्या रीत्या वदामः, तत्र किं भवति? विषयता, तत्र यत् अन्यैः इन्द्रियैः जायमानं प्रत्यक्षज्ञानम् अस्ति तत्र विषयः कदापि रूपं न भवति इति। इति तत्र किञ्चित् परिवर्तनं कृतं, किन्तु तेन चित्रम् एतत् चित्रं लभ्यते अपि, एतेन माध्यमेन वयं तत्र लक्षणवाक्यं सम्यक् रीत्या अवगन्तुं शक्नुमः। अस्तु, समीचीनं भगिनि, धन्यवादः। इदानीम् अग्रे अग्रे सरामः, तर्हि अग्रे शोभा भगिनी अग्रे। एकवारं भवती स्वशब्दैः किञ्चित् वदतु भगिनि तत्र एतस्य चित्रस्य विषये।
अस्तु,
अत्र श्रोत्रेन्द्रियम् इति स्थापयामः, अत्र श्रोत्रेन्द्रियम् इति अस्ति चेत्,
श्रोत्रेन्द्रियम्
अस्ति चेत् अपि एतद् नास्ति इति चिन्तयतु, एतद् नास्ति इति चिन्तयतु, तर्हि अत्र किं स्थापयामः? तर्हि
श्रोत्रेन्द्रियम् इति अस्ति चेत् तत्र रूपं तु नास्ति, इदानीं गन्धः इति अस्ति, तर्हि तदेव खलु महोदय?
स्वीकरोतु, समीचीनं भगिनि, अत्र श्रोत्रेन्द्रियम् अस्ति चेत् श्रोत्रेन्द्रियं प्रत्यक्षज्ञानं जनयति वा?
श्रोत्रेन्द्रियं प्रत्यक्षज्ञानं जनयति, किन्तु
खलु प्रत्यक्षज्ञानं जनयति, जनयति, तर्हि तत्र यदा जनयति श्रोत्रेन्द्रिये जनकता अस्ति, प्रत्यक्षज्ञाने जन्यता अस्ति,
जन्यता अस्ति, श्रोत्रेन्द्रियनिष्ठजनकता निरूपिता जन्यता आश्रयः प्रत्यक्षम् इति भूत्वा
प्रत्यक्षम् इति भवति। इदानीं तस्य प्रत्यक्षज्ञानस्य विषयः कः भवितुम् अर्हति?
तस्य प्रत्यक्षज्ञानस्य विषयः शब्दः इति भवितुम् अर्हति,
शब्दः इति भवितुम् अर्हति। तर्हि यदि अत्र श्रोत्रेन्द्रियम् इति स्थापयामः, श्रोत्रेन्द्रियम् इति स्थापयामः, तत्र शब्दः इति भवति, तन्नाम शब्दे विषयता अस्ति खलु, तर्हि यतोहि शब्दः एव विषयः, तर्हि शब्दे विषयता अस्ति, विषयिता प्रत्यक्षज्ञाने अस्ति, प्रत्यक्षज्ञानं कार्यम् अस्ति, नाम तस्य कारणमस्ति श्रोत्रेन्द्रियम्,
श्रोत्रेन्द्रियं तत्र श्रोत्रेन्द्रियं कारणमस्ति, कारणता तस्मिन् अस्ति, कार्यं प्रत्यक्षज्ञाने अस्ति,
कार्यं प्रत्यक्षज्ञानमेव कार्यमस्ति,
क्षम्यतां, प्रत्यक्षज्ञानमेव कार्यं, तस्मिन् कार्यता अस्ति, कार्यं प्रत्यक्षज्ञाने कार्यता अस्ति, अपि च तन्निष्ठा विषयिता अस्ति, यतोहि तत्र श्रोत्रेन्द्रियस्य विषयः विषयता अस्ति, विषयिता प्रत्यक्षज्ञाने अस्ति,
तत्र श्रोत्रेन्द्रियस्य विषयः इति नास्ति, श्रोत्रेन्द्रियजन्य ज्ञानस्य विषयः,
श्रोत्रेन्द्रियजन्य ज्ञानस्य विषयः, क्षम्यता,
विषयः सर्वदा ज्ञानस्य एव विषयः भवति, अत्र विषयः शब्दः भवति, यत्र श्रोत्रेन्द्रियजन्यज्ञानमस्ति तत्र विषय शब्दः भवितुम् अर्हति,
अर्हति,
किन्तु तत्र किं तत्र तादृशविषयः तत्र रूपं तस्य विषयः भवितुम् अर्हति वा?
तत्र नास्ति तत्र विषयता अभावः रूपम् इति एव वक्तुं शक्नुमः।
तर्हि तत्र यदि श्रोत्रेन्द्रियम् अस्ति चेत्
शब्दः इति विषयस्य विषयता अभावः रूपे अस्ति इति.
हा तर्हि तत्र अस्तु अस्तु एकनिमिष, तत्र यदि अभावः एतद् नास्ति चेत् वयं चित्रम् अवगच्छामः खलु, नाम एतत् केवलम् एतद् अस्ति चेत् अस्तु शब्दः श्रोत्रेन्द्रियेण गृह्यते इति अवगच्छामः खलु. इदानीम् एतत् त्यजामः, नाम तत्र अत्र यद्भागः एतत् त्यजामः, तत्र एतद् नास्ति एतदपि नास्ति इति चिन्तयामः, केवलम् एतदेव अस्ति इति चिन्तयतु, केवलम् एतदेव अस्ति. तर्हि तत्र तदा चित्रं किं वदति?
तदापि श्रोत्रेन्द्रियनिष्ठजनकता निरूपितजन्यता आशयः प्रत्यक्षं तन्निष्ठविषयिता निरूपितविषयता अभावः रूपे अस्ति.
इत्युक्ते किम्?
इत्युक्ते तत्र अभावः रूपे अस्ति इति उक्तत्वात्
कस्य अभावः रूपे अस्ति?
विषयतायाः अभावः रूपे अस्ति.
कीदृशी
विषयता इत्युक्ते तत्र श्रोत्रेन्द्रियनिष्ठजनकता जन्यता किं तत्र शब्दः इति एव तत्र
न शब्दः इति इदानीम् अस्तु, केवलं रूपमेव अस्ति इति चिन्तयतु, तर्हि अभावः अस्ति नाम तत्र श्रोत्रेन्द्रियेण जन्यं प्रत्यक्षज्ञानं यदस्ति तस्य विषयः रूपं कदापि भवितुम् अर्हति
वा? न अर्हति,
न अर्हति. तर्हि श्रोत्रेन्द्रियजन्यं प्रत्यक्षज्ञानं यत्किमपि भवेत् तस्य विषयः रूपं
नास्ति इति,
रूपं न भवति खलु,
न भवति,
रूपं नास्ति,
न भवति. अथवा तत्र
तर्हि विषयः रूपं तत्र श्रोत्रेन्द्रियजन्यप्रत्यक्षज्ञानस्य विषयः रूपं न भवति, रूपं नास्ति इत्युक्ते रूपे
विषयता
तादृशी विषयता नास्ति खलु, यतोहि विषयः तादृशः विषयः नास्ति रूपं, तर्हि तादृशी विषयता रूपे नास्ति खलु.
आम् आम् महोदय,
रूपं विषयः नास्ति इत्युक्ते रूपे विषयता नास्ति, नाम विषयतायाः अभावः
रूपे
अस्ति. यथा पूर्वं शब्दे विषयता अस्ति इति उक्तवन्तः, इदानीं नास्ति इति वक्तुं वयं केवलम् अभावः इति स्थापयामः, तावदेव परिवर्तनं खलु.
आम् आम्,
अत्र किम् उक्तम्? अस्ति
अस्ति,
नास्ति. अभावस्य योजनेन वयं केवलं तत्र नास्ति इति वक्तुम् इच्छामः खलु, तावदेव खलु,
तावदेव.
हा नाम रूपं रूपे एतादृशी विषयता नास्ति, किन्तु एतादृशी विषयता शब्दे अस्ति. यत्र श्रोत्रेन्द्रियमस्ति शब्दः अस्ति, तत्र विषयता शब्दे तु अस्ति, किन्तु तादृशी विषयता रूपे नास्ति.
आम् महोदय, कस्यापि केनापि घ्राणेन्द्रियेण जन्यता विषयता
नाम जन्यं ज्ञानं,
जन्यं ज्ञानम्
इन्द्रियेण जन्यं यत्किमपि प्रत्यक्षज्ञानं
भवेत् तस्य विषयता यस्मिन् कस्य यत्र तस्य विषयः क्षम्यतां तस्य विषयः तत्र एकस्मिन् एव भवितुम् अर्हति अन्येषु.
इदानीम् एकस्मिन् इति तस्य प्राधान्यं मास्तु, रूपे नास्ति इति,
रूपे नास्ति,
रूपे नास्ति, कुत्र अस्ति इति विषयः मास्तु इदानीम्. अत्र रूपम् इति अस्माकं मूलविषयः, रूपे किं किम् अस्ति इति वक्तुम् इच्छामः. रूपे
नास्ति, रूपम् इति गुणनिरूपणम् अस्तु.
हा अतः तत्र रूपस्य एव प्राधान्यम् इदानीं, रूपे एतादृशी विषयता नास्ति. हा पूर्वं किम् उक्तवन्तः अवगतवन्तः?
पूर्वम्
एतादृशी एतादृ
चक्षुरिन्द्रियेण चक्षुरिन्द्रियनिष्ठजनकता निरूपितजन्यता प्रत्यक्षं तत्र ज्ञानं तन्निष्ठविषयिता निरूपितविषयता रूपं रूपे अस्ति इति
तत्र नाम
इत्युक्ते
रूपं वदतु
हा इत्युक्ते तत्र रूपं रूपे विषयता कीदृशी विषयता अस्ति इत्युक्ते चक्षु चक्षुनिष्ठ किं
चक्षुजन्य
चक्षुजन्य
चक्षुषाजन्य
चक्षुषाजन्य ज्ञानं
चक्षुज्ञानम् अस्ति तस्य विषयः
तस्य विषयः रूपे
भवति रूपं रूपम् अस्ति इति कृत्वा तादृशी विषयता रूपे अस्ति
अस्ति इति
किन्तु इदानीं घ्राणेन्द्रियम् इति स्थापयामश्चेत् तत्र किं भवति तादृशी विषयता इदानीं
रूपे नास्ति
नास्ति खलु
आम् महोदय
अस्तु समीचीनं धन्यवादः भगिनि इदानीम् अन्य कोऽपि वदेत् तर्हि तत्र जयलक्ष्मी भगिनी नमस्कारः
नमस्ते महोदय
नमस्कारः भगिनी किञ्चित् स्वशब्दैः वदति वा भगिनी अस्मिन् चित्रे किं किम् अस्ति इति
हा परिश्रमं करिष्यामि महोदय अत्र अस्मिन् चित्रे अस्मिन् एतदेव चित्रे खलु प्राणादि
अत्र एतत् कुर्मः सारल्यार्थं प्रथमतया तत्र अत्र घ्राणेन्द्रियम् इति चिन्तयतु घ्राणेन्द्रियम् अपि गन्धः इति चिन्तयतु अपि रूपमिति मास्तु प्रथमतया तावत्पर्यन्तम् अस्ति चेत् किम् इति वदतु
अस्मिन् चित्रे घ्राणादि इन्द्रियाणि सन्ति चेत् तेन यत्
केवलं घ्राणेन्द्रियम् इति चिन्तयतु केवलं
घ्राणमेव
अपि गन्धः
वाक्यम्
इन्द्रियम् अपि गन्धः
अस्तु वाक्यम् एतादृशं
लौकिकरीत्या लौकिकरीत्या प्रथमतया वदतु तत्र एतत् चित्रं किं वदति तदनन्तरं तत्र न्यायशास्त्ररीत्या वदतु किन्तु तत्र गन्धः अस्ति घ्राणेन्द्रियम् अस्ति प्रत्यक्षम् अस्ति इति कृत्वा एतत् चित्रं किं वदति तर्हि
अस्तु इत्युक्ते घ्राणेन्द्रियं घ्राणेन्द्रियेण यत् ज्ञानं जनयति प्रत्यक्षज्ञानं जनयति तस्मिन् स्थिता विषयता केवलं गन्धः एव इति गन्धः एव इति विषयता आश्रयः गन्धः अस्तु
एव इति एतेन चित्रेण एव इति न उक्तम्
अस्तु अस्तु
खलु
तत्तु घ्राणादि इति उक्तत्वात्
केवलम् अतः केवलं घ्राणेन्द्रियम् इति चिन्तयतु अत्र
अस्तु
केवलं घ्राणेन्द्रियम् इति चिन्तयतु अत्र घ्राणादि इति मास्तु घ्राणेन्द्रियम् इति चिन्तयतु गन्धः इति चिन्तयतु तर्हि गन्धे
घ्राणेन्द्रियेण
वदतु घ्राणेन्द्रियेण
घ्राणेन्द्रियेण यत् प्रत्यक्षज्ञानं जनयति तत् ज्ञानं गन्धः अस्ति इति एतत्
ज्ञानस्य विषयः
ज्ञानस्य विषयता विषयः गन्धः
विषयः गन्धः अस्ति तर्हि ज्ञानस्य विषयः गन्धः अस्ति इत्युक्ते तत्र विषयता गन्धे गन्धे अस्ति
विषयता गन्धे अस्ति प्रत्यक्षज्ञाने विषयिता अस्ति तेन निरूपितविषयतायाः आश्रयः गन्धः अस्ति
गन्धः इति अस्ति समीचीनं भगिनि उत्तमं तर्हि तत्र अत्र घ्राणेन्द्रियं प्रत्यक्षं गन्धः अस्ति चेत् वयं किं वक्तुमिच्छामः घ्राणेन्द्रियं
घ्राणेन्द्रियेण
यत् प्रत्यक्षज्ञानं भवति तस्य विषयः गन्धः भवितुम् अर्हति इति वदामः भवति गन्धः गन्धस्य प्रत्यक्षज्ञानं घ्राणेन्द्रियेण भवति इति वदामः इति यदि एषः भागः आसीत् चेत् इदानीम् एषः भागः नास्ति इति चिन्तयतु अत्र केवलं घ्राणेन्द्रियम् इति एव अस्ति इति चिन्तयतु तर्हि तत्र किं तत्र घ्राणेन्द्रियेण यत् प्रत्यक्षज्ञानं भवति विषयः
घ्राणेन्द्रियेण यत् प्रत्यक्षज्ञानं भवति तस्मिन् विषयिता अस्ति विषयितायाः यत् या विषयिता विषयता अस्ति तत् विषयतायाः अभावः भवति रूपम् इति अत्र उक्तमस्ति.
रूपे
इत्युक्ते रूपे अस्ति
तादृशी विषयता शब्दे भवितुम् अर्हति किन्तु रूपे कदापि
भवितुं नार्हति
नार्हति. तर्हि तत्र तादृशी विषयता रूपे नास्ति नाम तादृशी विषयतायाः अभावः इव रूपे अस्ति.
रूपे अस्ति
खलु
इत्युक्ते घ्राणेन्द्रियेण यत् प्रत्यक्षज्ञानं जनयति तस्मिन् तादृशविषयतायाः अभावः रूपे अस्ति इति.
हा इति नाम घ्राणेन्द्रियेण यत् जन्यं प्रत्यक्षज्ञानं तस्य विषयः कदापि रूपं नास्ति
नास्ति
खलु.
आम्
घ्राणेन्द्रियेण यत्किमपि प्रत्यक्षज्ञानं भवतु किन्तु तस्य प्रत्यक्षज्ञानस्य विषयः अन्यत् किं किमपि भवितुम् अर्हति न जानीमः अपि न ज्ञातुम् इच्छामः इदानीं किन्तु किम् इच्छामः
प्रत्यक्ष
तत्र विषयः रूपं कदापि नास्ति विषयता रूपे कदापि न भवितुम् अर्हति. रूपस्य तत्र विषयतायाः अभावः एव रूपे अस्ति इति. हा अतः तत्र इदानीं घ्राणादि इति यदि स्थापयामः अपि एषः भागः यत् अस्ति तत् त्यजामः तं त्यजामः चेत् किं भवति घ्राणादि
घ्राणादि इन्द्रियैः हा चक्षुर्भिन्न अन्य इन्द्रियैः यत् प्रत्यक्षज्ञानं जनयति
भवति
हा प्रत्यक्षज्ञानं भवति ज्ञानस्य विषयता न चेत् विषयः विषयतायाः अभावः रूपम् अस्ति
रूपे रूपे अस्ति
रूपे
रूपे
अस्ति
रूपे अस्ति नाम तत्र विषयता रूपे नास्ति इति वक्तुम् इच्छामः तत् कथं वदामः रूपस्य तत्र रूपे
रूपे घ्राणादि घ्राणादि इन्द्रियेण यत् प्रत्यक्षज्ञानं यत् अस्ति तस्य विषयः रूपे तु नास्ति इति अत्र
विषयः रूपं नास्ति
विषयः रूपं नास्ति विषये क्षम्यता रूपे विषयत तादृशप्रत्यक्षज्ञानं घ्राणादिन्द्रियेण उत्पन्नं यत् प्रत्यक्षज्ञानं तस्य विषयत रूपे नास्ति
रूपे नास्ति केवलं तस्य अभावः एव विषयतायाः अभावः एव रूपे अस्ति इति अस्ति. अतः तत्र किं भवति एतेन चित्रेण एव अथवा मात्र इति यत् पदं लक्षणवाक्ये आसीत् तस्य प्रदर्शनं भवति खलु. चक्षुर्ग्राह्यगुणः रूपमिति तत्र चक्षुर्ग्राह्यः रूपमित्युक्ते प्रथमचित्रं खलु. चक्षुषा गृह्यते रूपं किन्तु तत्र लक्षणवाक्ये मात्र इति अस्ति. तर्हि तत्र मात्र इति पदस्य बोधः एतेन चित्रेण भवति नाम चक्षुर्भिन्न इन्द्रियम् अत्र स्थापयामः रूपम् इति स्थापयामः एतद् मास्तु तदा एतत् चित्रं किं वदति तत्र भिन्न
मात्र अन्य इन्द्रियैः
इन्द्रियैः न ग्राह्यः एषः गुणः
रूपमिति गुणः
रूपमिति गुणः अन्यैः चक्षुर्भिन्नैः इन्द्रियैः न ग्राह्यः अतः अग्राह्यत्वं रूपे
किन्तु अत्र अन्य इन्द्रियैः इति वदामः चेत् तत्र मनः अपि स्वीकरोति वा न चेत् केवलं
यतोहि अत्र बहिरिन्द्रियम् इति
बहिरिन्द्रियाणि एव
बहिरिन्द्रियैः इति चिन्तयामः तत्र यतोहि तत्र मनः तु तत्र सर्वदा भवति
सर्वेषां किन्तु सर्वत्र भवति इति कारणेन एव तस्यापि ग्रहणमत्र अस्ति वा
तत्तु तेन नाम तत्र गृह्यते इत्युक्ते तत्र किमस्ति प्रत्यक्षम् इति यत्र वदामः तत्र तत्र समीचीनं प्रश्नं भगिनि नाम तत्र प्रत्यक्षज्ञानम् इति यत्र वदामः साक्षात् यत् इन्द्रियं तत्र विषयस्य पार्श्वे अस्ति तस्य एव तत्र उल्लेखनं नाम तत्र चक्षुः एव तत्र विषयस्य नाम घटः अस्ति चेत् घटविषयज्ञानं चक्षुषा लभ्यते नाम आदिमकारणम् अस्ति तत्र चक्षुः तदनन्तरमेव मनः भवति खलु
हा इन्द्रियार्थसन्निकर्षः तु अत्यावश्यकं
हा अतः तत्र यत् 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 समीपं समीपम् अस्ति तत्र
विषयसन्निकर्षः
सन्निकर्षः अतः तत्र मनः तु अस्ति किन्तु तत्र प्रथम इन्द्रियं तु तत्र चक्षुः अस्ति अतः मनः अपि योजयितुं शक्नुमः किन्तु तदा तत्र तस्य निरूपणसमये तत्र किञ्चित् अन्यरीत्या वक्तव्यं भवति नाम एतत् सर्वं उक्त्वा एव तत्र अस्तु यत् समीपम् अस्ति एतत् वक्तव्यं भवति अतः तत्र हा सारल्यार्थं तत्र चक्षुः भिन्न इत्युक्ते तत्र घ्राणेन्द्रियं श्रोत्रेन्द्रियम् इति चिन्तयामः
अस्तु अस्तु तदेव महोदय अत्र गन्धादि इति वदामः चेत् समीचीनं भवति घ्राणादि इति उक्तत्वात् अत्र
सत्यं भगिनि हा हा सत्यं भगिनि हा अत्र गन्धादि इति भवेत् सत्यं भगिनि हा केवलं गन्धः मा समीचीनं नास्ति गन्धादि इति भवेत् समीचीनं भगिनि हा अस्तु धन्यवादः अस्तु अद्य अग्रे तत्र हा अग्रे अशोक् महोदय
इत्यर्थः सम्पन्नः एवं मूले चक्षुर्मात्र ग्राह्यो गुणो रूपम् इति लक्षणवाक्यं तत्र चरमं गुण इति पदं तदर्थस्य अपि लक्षण अन्तर्भावः आवश्यकः अन्यथा वक्षमाणा अतिव्याप्तिः भवेत् नाम लक्षणवाक्यं पुनर्लिखितं चक्षुर्मात्रग्राह्यगुणो रूपम् इति तस्य परं चरमं गुण इति पदम् अतः नाम
चरमम् इत्युक्ते नाम अन्तिमम्
अन्तिमं ग्राह्यस्य अनन्तरं गुणः इति लिखितं तदर्थस्य अपि लक्षण अन्तर्भावः आवश्यकः गुण इति पदस्य आवश्यकता अस्ति लक्षणवाक्ये इति
नाम यदि वयं केवलं वदामः चक्षुर्मात्रग्राह्यः रूपम् इति यदि वदामः
अतिव्याप्तिः भवति
अतिव्याप्तिदोषः भवति यथा वक्ष्यमाणा नाम इदानीं तत्र अग्रे तस्य प्रदर्शनं कुर्मः तस्य विषये वदामः अग्रे किन्तु अतिव्याप्तिदोषः भवति अतः गुणः अपि आवश्यकः अस्ति गुणः इति अपि तत्र आवश्यकः अस्ति लक्षणवाक्ये तर्हि इदानीं तत्र चक्षुर्मात्रग्राह्यः गुणः रूपम् इति लक्षणवाक्यं तत्र धलम् इति धलद्वयं धल इति पूर्वं चिन्तितवन्तः खलु तत्र वायुः इति विषये खलु वायुविषये तत्र लक्षणवाक्यं किम् आसीत्
रूपरहितस्पर्शवान् वायुः
हा तत्र धलद्वयमस्ति खलु रूपरहितत्वम् अपि अस्ति स्पर्शवान् अपि अस्ति इदानीम् अत्र धलद्वयमस्ति वा अथवा एकमेव धलम् अस्ति वा अत्र
धलत्रयम् अस्ति इति
इति विषयः तत्र धलत्रयमस्ति चक्षुर्ग्राह्यः इति एकं दलं गुणः इति अन्यद्दलं तृतीयदलं किमस्ति
चक्षुर् इतर इन्द्रियात् न ग्राह्यः
हा इति तृतीयदलं भवति समीचीनं महोदय हा अतः तत्र चक्षुर्ग्राह्यः इति दलं गुणः इति दलं तृतीयदलं चक्षुर्भिन्न इन्द्रियैः अग्राह्यः इति तदेव मातृपदेन सूचितम् अस्ति अतः तत्र नूतनविषयः अस्ति एतावत् वयं दलद्वयमस्ति चेत् तत्र दलसार्थक्यं कृतवन्तः कथं भवति इति साधितवन्तः किन्तु इदानीम् अत्र किम् अस्ति दलत्रयमस्ति दलत्रयस्य सार्थक्यं तत्र किञ्चित् भिन्नम् अस्ति नाम समानमेव अस्ति किन्तु तत्र सोपानानि अधिकानि भवन्ति तावदेव अस्तु समीचीनं महोदय अग्रे अपि पठति वा महोदय रूपलक्षणदलसार्थक्यम् इति
अस्तु महोदय रूपलक्षणे दलसार्थक्यं तथा च प्रथमं चक्षुर् इन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षनिष्ठ विषयितानिरूपितविषयतावत्त्वे सति इति द्वितीय
विषयतावत्त्वम् इति प्रथमदलं विषयतावत्त्वं नाम विषयताया विषयता अस्ति रूपे विषयतावत्त्वं तत्र वत्त्वं नाम तदेव
द्वितीयदलः अस्ति चक्षुर् इतर इन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयत्व इति उक्तं विषयत्व अभाववत्त्वे अस्ति
नाम विषयतायाः अभावः भवेत् इति रूपे रूपे अस्ति तर्हि प्रथमदलं चित्ररूपेण भवति चेत् तत्र किं चित्रमस्ति प्रथमचित्रं
प्रथमचित्रं
हा केवलं वदति चक्षुरिन्द्रियेण ग्राह्यः रूपं चक्षुरिन्द्रियेण ग्राह्यः अस्ति द्वितीयदलम् अत्र किं वदति
अन्यान् इन्द्रियेण अग्राह्यः
अग्राह्यः अग्राह्यः अस्ति अग्राह्यः कथं वदामः नाम विषयतायाः अभावः रूपे अस्ति यतोहि तत्र वयम् एतादृशं वर्णनं किमर्थं कुर्मः वयम् अस्माकं लक्ष्यमस्ति रूपं खलु
आं महोदय
लक्ष्यमस्ति रूपं लक्षणं कुत्र भवेत् लक्ष्ये भवेत् तर्हि लक्षणम् इति यदि वदामः तत्र रूपे किं किम् अस्ति इति वक्तुं तदेव समीचीनं भवति लक्ष्यमस्ति रूपं रूपे किं किम् अस्ति इति वक्तव्यं भवति तर्हि रूपं लक्ष्यं तस्मिन् लक्ष्ये विषयता प्रथमविधविषयता अस्ति चक्षुर्जन्यप्रत्यक्षज्ञाननिरूपितविषयता तत्र रूपे अस्ति चक्षुर्भिन्न इन्द्रियजन्यप्रत्यक्षज्ञानविषयतायाः अभावः अपि रूपे अस्ति इति द्वितीयदलम् इति अपि तृतीयदलं किम् अस्ति इदानीं
गुणत्वम् अस्ति नाम
गुणः
गुणः अस्ति अतः तस्मिन् गुणत्वम् अस्ति
गुणत्वम् अस्ति इति तत्र दलत्रयम् आगतम् अस्ति इदानीं तत्र चिन्तनम् अस्ति किमर्थम् एतादृशं वर्णनं करणीयं सारल्यं नास्ति वा दलत्रयमपि आवश्यकं वा इति प्रश्नः उदेति तर्हि इदानीं दलसार्थक्यं कर्तव्यम् एतदेव लक्षणं भवति चेत् तत्र तत्र दोषत्रयमस्ति
तर्हि अतिव्याप्तिदोषः भवति
हा तर्हि अत्र अतिव्याप्तिदोषः भवति यदि एकमपि दलं त्यजामः अतिव्याप्तिदोषः भवति किन्तु अत्र दलत्रयमस्ति इति कृत्वा एकं दलं त्यजामश्चेदपि अतिव्याप्तिदोषः भवति दलद्वयं त्यजामश्चेत् अतिव्याप्तिदोषः भवति प्रथमतया दलद्वयं त्यजामश्चेत् अतिव्याप्तिदोषः भवति एकं दलमपि त्यजामश्चेत् अतिव्याप्तिदोषः भवति एतत् सर्वं प्रदर्शनीयं भवति अतः एव इदानीं तत्र दलसार्थक्य अग्रे अस्माकं विषयः भवति समीचीनं महोदय धन्यवादः अस्तु अग्रे सरामः तर्हि तर्हि तत्र हा धनश्री भगिनी अग्रे पठति वा
समन्वयप्रकारश्च इत्थं चक्षुरिन्द्रियजन्यं यत्
प्रत्यक्षम् इदं शुक्लं रूपम् इति प्रत्यक्षम् तन्निष्ठविषय विषयिता निरूपितविषयतारूपे अस्ति एवं चक्षुर्भिन्न यत् इन्द्रियं घ्राणं तज्जन्य यत् प्रत्यक्षम् अयं सुरभिगन्ध इति प्रत्यक्षम् तन्निष्ठविषयिता निरूपितविषयता गन्धे विषयत्वाभावः लक्ष्ये रूपे अस्ति एवं रूपगुण इति तत्र गुणत्वजातिरपि वर्तते इति समन्वयः तत्र समन्वयप्रकारः इत्थं नाम पृष्ठसङ्ख्या चत्वारिंशत् मध्ये अस्ति तथा
तत्र समन्वयः नाम किं तत्र लक्ष्ये लक्षणं भवेत् नाम तत्र गन्धवती पृथ्वी इति यदि वदामः तत्र पृथिव्यां गन्धवत्वम् अस्ति खलु गन्धः पृथिव्याम् अस्ति खलु नाम गन्धवती पृथिवी गन्धवती अस्ति मतुप् वती गन्धवती गन्धवती पृथ्वी इत्युक्ते तत्र गन्धवती किम् अभवत् तत्र विशेषणं सूचकपदं खलु नाम सुन्दरः बालकः उन्नतः वृक्षः गन्धवती पृथ्वी समानमस्ति खलु किन्तु उन्नतः वृक्षः इति यदि वदामः तत्र केन तत्र एषः वृक्षः विद्यते अन्येभ्यः वृक्षेभ्यः एषः वृक्षः औन्नत्येन तत्र उन्नत इति तस्य भावप्रत्ययस्य योजनेन यत् पदं लभ्यते तद् अस्ति अपि औन्नत्यं तत्र वृक्षे अस्ति खलु साक्षात् वृक्षे किमस्ति औन्नत्यम् अस्ति खलु तथैव गन्धवती इति पृथ्वी इति वदामः गन्धवती पृथ्वी तर्हि पृथिव्यां किम् अस्ति न न गन्धवती इति तस्य भाववाचकपदं
भावः
किमस्ति
गन्धवत्वं
गन्धवत्वं गन्धवत्वम् अस्ति इति यदि वदामः तत्र वयं सम्यक् रीत्या अवगच्छामः अस्तु गन्धवत्वम् इति पदार्थः पृथिव्याम् अस्ति खलु गन्धवती इति केवलं विशेषणसूचकं किन्तु साक्षात् विशेषणमस्ति गन्धवत्वं तेनैव तत्र एषा पृथ्वी विद्यते तथैव लक्षणम् इति यदि वदामः लक्षणं लक्ष्ये भवेत् तर्हि यथा लक्षणं यथा तत्र गन्धवत्वम् इति उक्तवन्तः तथैव अत्रापि विषयता अस्ति इति वक्तव्यं भवति खलु केवलं विषयः इति न वदामः तत्र रूपं चक्षुजन्यप्रत्यक्षज्ञानस्य विषयता इति न वदामः किन्तु रूपे विषयता अस्ति इति खलु विषयः जन्यप्रत्यक्षज्ञानविषयः रूपमिति यदि वदामः तत्र विशेषणविशेषभावः अस्ति किन्तु साक्षात् विशेषणमस्ति विषयता अथवा विषयत्वं खलु यथा औन्नत्यम् इति भवती उक्तवती तथैव अत्र विषयत्वं तर्हि इदानीम् अत्र तादृशवर्णनमेव समन्वयः नाम येन स्पष्टं भवति लक्षणं लक्ष्ये अस्ति अस्ति इति अतः तत्र इदानीं तत्र इत्थम् आसीत् समन्वयप्रकारः इत्थम् अस्ति नाम चत्वारिंशत्तमे पुटे यत् प्रदर्शितमस्ति तत् अस्ति समन्वयप्रकारः तादृशक्रमः तत्र सूचितः तत्र विवरणं दत्तमस्ति तस्य तादृशवर्णनम् अत्र कुर्मः तर्हि किं किं भवति इदानीं
चक्षुरिन्द्रियजन्यं यत् प्रत्यक्षम् इदं शुक्लम् इदं रूपम् इति प्रत्यक्षं तन्निष्ठविषयिता निरूपितविषयता रूपे अस्ति
तर्हि रूपे किम् अस्ति
रूपे विषयता एतादृशी विषयता
एतादृशी विषयता रूपे अस्ति तर्हि तत्र प्रथमदलस्य दलं लक्षणे प्रथमदलं यदस्ति तद् लक्ष्ये अस्ति खलु रूपे अस्ति रूपे अस्ति इति प्रथमदलं यत् अस्ति तद् लक्षणवाक्ये अस्ति तद् लक्ष्ये अस्ति इति सूचितवन्तः इदानीं स्पष्टतया उक्तमस्ति हा अग्रे
एवं चक्षुर्भिन्न यत् इन्द्रियं प्राणं तज्जन्यं यत् प्रत्यक्षम् अयं सुरभिगन्ध इति प्रत्यक्षं तन्निष्ठविषयिता निरूपितविषयता गन्धे विषयत्वाभावः लक्ष्ये रूपे अस्ति नाम द्वितीयदलमस्ति विषयत्वाभावः लक्ष्ये रूपे अस्ति नाम गन्धे या विषयता अस्ति सा विषयताया अभावः लक्ष्ये रूपे अस्ति
नाम तत्र गन्धे या विषयता अस्ति इति समीचीनमेव किन्तु तत्र घ्राणेन्द्रियजन्यप्रत्यक्षज्ञाननिरूपितविषयता या अस्ति सा विषयता गन्धे तु अस्ति किन्तु सा विषयता रूपे नास्ति रूपे नास्ति नाम विषयतायाः अभावः एव रूपे अस्ति अतः तत्र रूपे अभावः विषयतायाः अभावः रूपे अस्ति इति द्वितीयदलं प्रदर्शितमस्ति खलु नाम लक्षणवाक्ये द्वितीयदलं यदस्ति तद् लक्ष्ये अस्ति मात्र इति अग्राह्यत्वं नाम विषयतायाः अभावः न गृह्यते इति अत्र कथम् उक्तमस्ति विषयतायाः अभावः इति रीत्या उक्तमस्ति अत्र
एवं रूपं गुण इति तत्र गुणत्वजातिरपि वर्तते इति समन्वय नाम रूपे गुणत्व इति जाति अपि अस्ति इति
रूपं तु गुणः अस्ति गुणत्वमिति जातिः रूपे अस्ति तर्हि तत्र रूपे प्रत्येकदलं यद्यदस्ति तत् सर्वं रूपे अस्ति प्रथमविधविषयता अस्ति द्वितीयविधविषयतायाः अभावः अपि रूपे अस्ति गुणत्वमपि रूपे अस्ति तर्हि लक्षणं यत् लक्षणमिति इच्छामः अस्माकम् इष्टमस्ति एतदेव लक्षणं भवेत् इति यदिष्टमस्ति तत्तु लक्ष्ये अस्ति खलु किन्तु तेन किं तत्र लक्षणवाक्यम् इति स्वीकर्तुं शक्नुमः वा
त्रीणि लक्षणानि सन्ति अतः तद् लक्षणवाक्यमिति स्वीकर्तुं शक्नुमः
नाम लक्षणमिति कदा वदामः लक्ष्ये अस्ति चेत् तत्र लक्षणमिति स्वीकर्तुं शक्नुमः
वा लक्ष्ये भवेत् अलक्ष्ये न भवेत्
इति अस्ति अतः अलक्ष्ये न भवेत् इति अतिव्याप्तिदोषः मा भूत् इति अस्ति अतः तत्र नियमः तर्हि अतिव्याप्तिदोषः तत्र भवति वा इति तत्र परिशीलनीयं भवति अतः एतावत् वयं किं साधितवन्तः दलत्रयमपि अस्मिन् लक्ष्ये रूपे तु अस्ति रूपे तु अस्ति किन्तु इदानीं तत्र सर्वं वक्तव्यं न भा इति नाम यदि न वदामः तत्र दोषः भवति वा अथवा न भवति इति तत् तस्य परिशीलनं भवेत् अग्रे तदेव दलसार्थक्यं अस्तु समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र पुष्पा भगिनी किञ्चित् वदति वा अग्रे
प्रयत्नं करोमि महोदय ग्लासेस् एकनिमिषम् लक्षणे विद्यमानानाम् एतद् वदामः रूपलक्षणे दलसार्थकं दलसार्थक्यम् लक्षणे विद्यमानानां दलानाम् उपयोगं चिन्तयामः. दलनिर्देशे सङ्ख्याः अपि उल्लिखिताः सन्ति. ताः आदाय यदि चिन्तयामः तर्हि केवलम् एक आद्यः प्रकारः केवलं केवलं द्वितीयः केवलं तृतीयः प्रकारः.
भगिनि तत्र किम् अस्ति नाम दलद्वयम् अस्ति खलु, दलद्वयम् इति उक्तम् अस्ति खलु. दलद्वयं किं किम् अस्ति?
दल तृतीयः
न रूपलक्षणे रूपलक्षणे दलत्रयम् आसीत् खलु. किं किम् अस्ति? प्रथमदलं किम् आसीत्?
अत्र प्रत्यक्षं जन्य जन्य
नाम विषयः तत्र चक्षुर्जन्य चक्षुर्जन्यप्रत्यक्षज्ञान विषयः प्रथमदलं. द्वितीयदलं किम् आसीत्? अन्यैः इन्द्रियैः अग्राह्यं. समीचीनं. तृतीयदलं किम् आसीत्? तृतीयदलं किम् आसीत्?
न ग्राह्यते. तृतीयदलं इदानीं उक्तं नरेन्द्रस्य महोदय.
गुणः अस्ति खलु, गुणत्वम् इति तृतीयदलं. तर्हि नाम प्रथमविधविषयता अस्ति, द्वितीयविध विषयतायाः अभावः अस्ति इति द्वितीयदलं, तृतीयदलम् अस्ति गुणत्वं, दलत्रयमस्ति खलु. इदानीं दलत्रयमस्ति, इदानीं तत्र दलानाम् उपयोगम् अस्ति न वा इति, नाम एतद् दलम् आवश्यकं न वा इति चिन्तनं भवेत् खलु. केवलं दलमस्ति अस्ति इति वदामश्चेत् किं तेन किमपि प्रयोजनम् अस्ति न वा इति
परिशील्यस्य
उपयोगः अस्ति चेत् स्थापयामः, नो चेत् त्यजामः खलु. तर्हि तर्हि केवलं तत्र सङ्ख्या एका इति सङ्ख्या अस्ति खलु, तत्र प्रथम तत्र एकं दलं प्रथमं दलम् अस्ति चेत् तदस्ति आद्यः
प्रकारः.
नाम इदानीं तत्र दलसार्थक्यं केवलम् एकमेव दलसार्थक्यं न भवति, अनेकविध अनेकप्रकार दलसार्थक्यं भवति. तत्र दलत्रयमस्ति खलु, केवलं प्रथमं दलम् एव अस्ति चेत् तदा किं भवति इति अस्माकं प्रथमास्थितिः, प्रथमदलम् एव अस्ति चेत्. अतः आद्यः प्रकारः यत्र केवलं प्रथमदलम् एव यत्र चक्षुर्जन्यप्रत्यक्षज्ञानम् इति तत्र तद्दलमस्ति चेत् किं तत्र अतिव्याप्तिदोषः भवति न वा इति परिशीलनीयमस्ति. तदस्ति आद्यः प्रकारः. केवलं द्वितीयदलमस्ति चेत् तदस्ति द्वितीयप्रकारः. तृतीयदलमेव अस्ति, केवलं तृतीयदलम् अस्ति, प्रथमदलं नास्ति, द्वितीयदलं नास्ति, केवलं तृतीयदलम् अस्ति चेत् तदस्ति तृतीयप्रकारः. चतुर्थप्रकारः कीदृशः अस्ति?
चतुर्थः गुण सर्वे अपि
न अत्र उक्तं, सङ्ख्या दत्ता खलु. किम् अस्ति? प्रथमदलम् अस्ति, द्वितीयदलमपि अस्ति, किन्तु तृतीयदलं नास्ति चेत् दोषः भवति न वा इति खलु.
गुणस्य
दलत्रयमस्ति चेत् किं किं परिशीलनीयं भवति? सर्वं दलम् आवश्यकम् इति परिशीलनीयं भवति खलु. तर्हि एकमेव प्रथमदलम् अस्ति चेत् अतिव्याप्तिदोषः भवति वा? द्वितीयदलम् अस्ति चेत् केवलं तदस्ति चेत् अतिव्याप्तिदोषः भवति वा? तृतीयदलमेव अस्ति चेत् किम् अतिव्याप्तिदोषः भवति वा? अथवा प्रथमा अपि द्वितीयदलम् अस्ति चेत् तत्रापि अतिव्याप्तिदोषः भवति वा? प्रथमः अपि तृतीयदलमस्ति चेत्, किन्तु द्वितीयदलं नास्ति, तत्रापि किम् अतिव्याप्तिदोषः भवति वा? अपि द्वितीयदलम् अस्ति, तृतीयदलम् अस्ति, किन्तु प्रथमदलं नास्ति चेत्
षष्ठः,
तत्र अपि अतिव्याप्तिदोषः भवति वा इति भिन्नभिन्नसन्दर्भाः, भिन्न अतः एव प्रकाराः. अतः षड्विध षट् प्रकाराः सन्ति, तत्र सर्वत्र किम् अस्माकं कार्यं किम् अस्ति? अतिव्याप्तिदोषः अस्ति न वा इति परिशीलनीयम् अस्ति अस्माभिः. तत्र अतिव्याप्तिदोषः यदि नास्ति किं भवति तर्हि? अत्र अतिव्याप्तिदोषः नास्ति चेत् किं भवति? अत्र अतिव्याप्तिदोषः नास्ति इति
नास्ति अत्र
नाम तृतीयदलस्य आवश्यकता
अभावः
न तृतीयदलस्य आवश्यकता एव नास्ति. केवलम् एकं प्रथमदलं द्वितीयदलमेव पर्याप्तम्. यदि अत्र अस्मिन् सन्दर्भे अतिव्याप्तिदोषः नासीत् तदा तृतीयदलस्य आवश्यकता नास्ति. किन्तु अस्माकम् इच्छा किं? तत्र अत्रापि अत्र 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 सर्वत्र अतिव्याप्तिदोषः भवेत्. तेन एव वयं साधितुं शक्नुमः दलत्रयमपि आवश्यकम्. अस्तु, तत्र एतदेव अन्य कोऽपि वदेत् तर्हि तत्र चन्द्रमती भगिनी, तत्र प्रकाराः का के अपि तत्र अस्माकं कार्यं किम् इति किञ्चित् वदतु भगिनि.
अत्र प्रथमदलमस्ति चक्षुरिन्द्रियेण ग्राह्यत्वम् इति रूपम् इति विषय. द्वितीयदलमस्ति चक्षुरिन्द्रियेण अग्राह्यत्वम्,
चक्षुर्भिन्न इन्द्रियेण
चक्षुर्भिन्नेन्द्रियेण अग्राह्यत्वम्. द्वितीयदलमस्ति गुणः इति प्रथमं द्वितीयम् अस्ति चेत् चक्षुरिन्द्रियेण ग्राह्यत्वं, चक्षुर्भिन्न इन्द्रियेण अग्राह्यत्वम्. प्रथमं तृतीयम् अस्ति चेत् चक्षुरिन्द्रियेण ग्राह्यत्वं गुणः
गुणत्वम् इति. तर्हि दलत्रयं भगिनि, तर्हि तत्र दलत्रयम् अस्ति, किं दलत्रयमपि आवश्यकं वा? चिन्तनीयमस्ति खलु, प्रश्नः उदेति. तर्हि तदा किं करणीयं तत्र?
एकैकं स्वीकृत्य वयं चिन्तयामः तत् वयं लक्षणस्य उपयोगम् अतिव्याप्तिदोषः कुत्रापि अस्ति वा नास्ति वा इति द्रष्टव्यम्
इति द्रष्टव्यमस्ति. हा, तर्हि पूर्वं किम् आसीत्? दलद्वयमेव यत्र आसीत् तत्र एकं दलं त्यक्त्वा अतिव्याप्तिदोषः अस्ति न वा इति केवलं तदेव अस्माकं कार्यम् आसीत्. किन्तु अत्र किमस्ति? दलत्रयमस्ति इति कृत्वा एकं दलं त्यजामश्चेत् किम् अतिव्याप्तिदोषः भवति, अथवा दलद्वयं त्यजामश्चेत् अतिव्याप्तिदोषः भवति न वा इति चिन्तनीयं भवति. अतः
अतः प्रथम चक्षुरिन्द्रिय
अतः तत्र षट् प्रकाराः सन्ति खलु,
षट् प्रकाराः सन्ति
यत्र वयं अतिव्याप्तिः दोषः अस्ति इति साधयितुम् इच्छामः. यदि न साधितुं शक्नुमः तर्हि दोषः भवति खलु, नाम अस्माकं लक्षणवाक्यं समीचीनं न भवति. किन्तु अस्माकं चिन्तनमस्ति दलत्रयमपि आवश्यकं, तर्हि षट् सन्दर्भेषु अतिव्याप्तिदोषः भवति इति वयं प्रदर्शयितुम् इच्छामः खलु. तत्र यदि तत्र षष्ठप्रकारे अतिव्याप्तिदोषः नास्ति इति चिन्तयतु, तर्हि लक्षणवाक्ये किं दलं, कस्य दलस्य आवश्यकता नास्ति?
चक्षुरिन्द्रियेण ग्राह्यत्वम् अत्र न आगच्छति.
आवश्यकता नास्ति, तस्य आवश्यकता नास्ति यतोहि अतिव्याप्तिदोषः नास्ति इति कृत्वा द्वितीयदलं तृतीयदलं तेनैव पर्याप्तं भवति लक्षणं। प्रथमदलस्य आवश्यकता एव नास्ति। यदि यदि अत्र अतिव्याप्तिदोषः न स्यात्, किन्तु वयम् अस्माकम् इच्छा किम् अस्ति अत्रापि अतिव्याप्तिदोषः भवति। अतः अग्रिमे वर्गे किं कुर्मः, प्रत्येकस्मिन् प्रकारे
प्रकारे
द्वितीये प्रकारे सर्वत्र किम् अतिव्याप्तिदोषः
कुत्र भवति,
हा नास्ति वा इति परिशील परिशील्य वयं
दलत्रयम् आवश्यकं वा नास्ति वा इति
स्थापनीयं भवति। यदि एकमेव दलं स्वीकुर्मः अतिव्याप्तिदोषः भवति नाम कुत्र अतिव्याप्तिदोषः, अतिव्याप्तिः कुत्र अस्ति,
कुत्र भवति,
कस्मिन् कस्मिन् अलक्ष्ये पदार्थे अस्ति इति वक्तव्यं भवति। अतः तत्र एतत् सर्वम् अग्रिमे वर्गे भवति। अतः एतावत् वयं दलत्रयम् अस्ति इति लक्षणवाक्ये रूपस्य लक्षणवाक्ये अवगतवन्तः। अपि प्रथमचित्रं प्रथमदलस्य वर्णनं करोति, द्वितीयचित्रं द्वितीयदलस्य वर्णनं करोति अग्राह्यत्वम् इति तस्य वर्णनं करोति, तृतीयदलं तु गुणत्वम्, एतत् वयं जानीमः। अतः तत्र चित्रम् अपि दलं तयोः मध्ये तत्र समन्वयः कथं भवति इति सम्यक् रीत्या मनसि भवेत् सर्वेषां कृते। अस्तु तर्हि समीचीनमस्ति, बहु किमपि कृतवन्तः। अग्रिमे वर्गे इतः आरभ्य षट् प्रकारेषु तत्र अतिव्याप्तिदोषः कुत्र कुत्र भवति इति परिशीलनं कुर्मः। अस्तु तर्हि अत्र विरमामः, नमस्कारः, धन्यवादः, अग्रिमे वर्गे मिलामः तर्हि, नमस्कारः,
धन्यवादः।